इदानीं तारकवधं चिकीर्षुः तत्र भवान् कालिदासः सप्तदशतमं सर्गम् आरभते। दृष्ट्वाभ्युपेतमथ दैत्यपतिं पुरस्तात् सङ्ग्रामकेलिकुतुकेन घनप्रमोदम् योद्धुम् मदेन मिमिलुः ककुभामधीशाः बाणान्धकारितदिगम्बरगर्भमेत्य दृष्ट्वेति अथ तारकसम्मुखगमनानन्तरम् एते ककुभाम् अधीशाः इन्द्रादयः अष्टौ दिक्पालाः सङ्ग्रामः समरः स एव केलिः क्रीडा न तु प्रयत्नसाध्यम् कर्मेति भावः। तत्र यत् कुतुकम् कौतूहलम् तदनुभवहेतुकः उत्साहः इति यावत् तेन घनः सान्द्रः बहल इति यावत् यः प्रमोदः आनन्दः स यस्य तथा बाणैः अन्धकारितः सञ्जातान्धकारीकृतः दिशाम् अम्बरस्य च गर्भः कुक्षिः मध्ये इति यावत् येन तथा अभ्युपेतम् सम्मुखम् आगतम् दैत्यपतिम् तारकम् दृष्ट्वा विलोक्य योद्धुम् सम्प्रहर्तुम् मदेन गर्वेण वीररसानुभावेनेति यावत् मिमिलुः संयुयुजुः सर्गेऽस्मिन् वसन्ततिलकावृत्तम् उक्ता वसन्ततिलका तभजा जगौगः इति लक्षणात् देवद्विषाम् परिवृढोर्विकटम् विहस्य बाणावलीभिरमरान् विकटान् ववर्ष शैलानिव प्रवरवारिधरो गरिष्ठान् अद्भिः पराभिरथगाढमनारताभिः। देवेति अथ अनन्तरम् देवद्विषाम् असुराणाम् परिवृढः नायकः तारकः विकटम् यथा स्यात् तथा विकटः सुन्दरे प्रोक्तो विशालविकरालयोः इति विश्वः विहस्य हसित्वा अट्टाट्टहासम् कृत्वा इत्यर्थः। अट्टाट्टहासः अत्र रुढभिव्यञ्जकः न तु सुरसैन्यविषयिणः अवहेलनस्य। तत्र शाङ्करे रथिष्ठितत्वात् विहस्येत्यत्र वेहव्यर्थत्वम् नाशङ्कनीयम् विकटत्वेऽपि विशेषाधानात् प्रवरः प्रकर्षेण श्रेष्ठः वर्षाकालिक इति यावत् स चासौ वारिधरः मेघः गरिष्ठान् अतिशयगुरून् शैलान् उद्दिश्येति शेषः पराभिः उत्कृष्टाभिः अनारताभिः निरन्तरम् पतन्तीभिः अद्भिः जलैरिव विकटान् करालान् अमरान् इन्द्रादिदेवान् उद्दिश्येति शेषः बाणावलीभिः शरपङ्क्तिभिः कृत्वा ववर्ष वृष्टिम् अकार्षीत्। जम्भद्विषत्प्रभृतिदिक्पतिचापमुक्ताः बाणाश्चिता दनुजनायकबाणसङ्घान् अह्नाय तार्क्ष्यनिवहा इव नागपूगान् सद्यो विचिच्युदुरलम् कणशोरणान्ते। जम्भद्विषदिति दनुजानाम् दैत्यानाम् नायकस्य स्वामिनः तारकस्य सम्बन्धिनः बाणसङ्घान् शरसमूहान् कर्मभूतान् जम्भद्विषत्प्रभृतयः महेन्द्रादयः ये दिक्पतयः दिगधिपाः तैः कर्तृभिः चापेभ्यः मुक्ताः विसृष्टाः सिताः तीक्ष्णाः बाणाः शराः नागपूगान् सर्पव्रजान् नागः पन्नगमातङ्गक्रूरचारिषु तोयदे इति पूगस्तु क्रमुके वृन्दे इति च विश्वः अह्नाय शीघ्रम् द्राघटित्यञ्जसाह्नाय इत्यमरः तार्ष्यनिवहाः गरुडसमूहाः इव तार्ष्यम् रसाञ्जने तार्ष्यो गरुडे गरुडाग्रजे इति विश्वः रणान्ते सङ्ग्राममध्ये सद्यः सपदि अलम् अतिशयेन कणशः विचिच्छिदुः बिभिदुः कणश इति बह्वल्प इति शस् तान्प्रज्वलत्फलमुखैर्विषमैः सुरारि नामाङ्कितैः पिहितदिग्गगनान्तरालैः आच्छादितस्तृणचयानिव हव्यवाहः चिच्छेदसोऽपि सुरसैन्यशरान् शरौघैः तानिति सोऽपि तारकोऽपि प्रकर्षेण ज्वलन्ति दीप्यमानानि फलानाम् फलकानाम् अयोनिर्मितपुरोभागानामिति यावत् फलम् हेतुकृते जातीफले फलकसत्ययोः इति मेदिनी मुखानि अग्राणि येषाम् अत एव विषमैः दुःसहैः तथा सुरारिनाम्ना तारक इति वर्णपाठ्या अङ्कितैः युक्तैः तथा पिहितम् आच्छादितम् दिशाम् गगनस्य अम्बरस्य च अन्तरालम् मध्यम् यैः तथाभूतैः शरौघैः बाणसङ्घैः कृत्वा तान् अद्वितीयान् सुरसैन्यस्य देवसैन्यस्य शरान् आच्छादितः उपरि आवृतः हव्यवाहः अग्निः तृणचयानिव घासराशीनिव चिच्छेद ज्वालयति स्मेत्यर्थः हव्यवाहस्य तृणचयभस्मीकरणे यावान् प्रयत्नः उद्भवति तावानेव सुरशरभस्मसात्करणे इत्यतः असुरबाणानाम् सामर्थ्यातिशयः ध्वन्यत इति अलङ्कारेण वस्तुध्वनिः दैत्येश्वरो ज्वलितरोषविशेषभीमः सद्यो मुमोच युधियान् विशिखान् सहेलः ते प्रापुरुद्भटभुजङ्गमभीमभावम् गाढम् बबन्धुरपितांस्त्रिदशेन्द्रमुख्यान् दैत्येश्वर इति ज्वलितः प्रदीप्तः यः रोषः क्रोधः कोपक्रोधामर्षरोषप्रतिघाः इत्यमरः तस्य विशेषः आधिक्यम् तेन भीमः घोरः दैत्येश्वरः तारकः युधि युद्धविषये सहेलः किमेतद्युद्धमिति अनादरसहितः सन् यान् विशिखान् बाणान् विशिखो लोमशेशरे इति विश्वः मुमोच विससर्ज ते शराः सद्यः सपदि उद्भटाः विकटाः ये भुजङ्गमाः सर्पाः भीमाः भयानकाः तदुभयभावम् तदुभयत्वम् प्रापुः सत्यपि भुजङ्गमत्वे भीमत्वस्य ऐच्छिकत्वात् पृथग्व्यपदेशः अथ च त्रिदशेन्द्रमुख्यान् इन्द्रप्रभृतीन् तान् देवान् गाढम् दृढम् यथा तथा बबन्धुरपि अपिरत्र प्राप्तिक्रियापेक्षया समुच्चयार्थः अपिः सम्भावनाप्रश्नशङ्कागर्हासमुच्चये इति विश्वः इन्द्रप्रभृतयः देवाः तारकोन्मुक्तनागपाशबद्धाः बभूवुरित्यर्थः. ते नागपाशविशिखैरसुरेण बद्धाः श्वासानिलाकुलमुखा विमुखारणस्य दिङ्नायका बलरिपुप्रमुखा स्मरारिसूनोः समीपमगमन् विपदन्तहेतोः. त इति असुरेण तारकेण नागपाशविशिखैः नागपाशरूपबाणैः कृत्वा बद्धाः. अत एव श्वासानिलैः निःश्वासपवनैः आकुलानि व्याप्तानि मुखानि येषाम्. अत एव रणस्य विमुखाः पराङ्मुखाः. भीतस्य च रणवैमुख्यम् नानुचितमिति भावः. बलरिपुप्रमुखाः इन्द्रप्रभृतयः दिङ्नायकाः अष्टदिगधिपाः कर्तारः विपदः अन्तः नाशः स एव हेतुः कारणम् तस्मात् स्मरारिसूनोः कुमारस्य समीपम् सन्निधिम् अगमन् प्रापुः. दृष्टिप्रपातवशतोऽपि पुरारिसूनोः ते नागपाशघनबन्धविपत्तिदुःखात् इन्द्रादयो मुमुचिरे स्वयमस्य देवाः सेवाम् व्यधुर्निकटमेत्य महाजिगीषोः. दृष्टीति ते इन्द्रादयो देवाः पुरारिसूनोः त्रिपुरशत्रुपुत्रस्य दृष्टिः नेत्रम् स्त्रियाम् दृष्टिस्त्रियाम् बुद्धौ लोचने दर्शनेऽपि च इति विश्वः. तस्य प्रपातः पतनम् तस्य वशतः वशेन प्रभुत्वेन प्रभावेणेति यावत् वशम् मिथ्याप्रभुत्वयोः इति विश्वः. नागपाशेन घनः दृढः बन्धः बन्धनमेव विपत्तिः. तेन यद्दुःखम् ततः तस्मात् मुमुचिरे मुक्ताः. अथ च महाजिगीषोः अस्य कुमारस्य स्वयम् आत्मना न तु परोक्षेण निकटम् सान्निध्यम् एत्य आगत्य सेवाम् सेवनम् स्तुतिमिति फलितोऽर्थः. व्यधुः चक्रुः. अथ युग्मेन आह उद्दीप्तकोपदहनोऽथ सुरेन्द्रशत्रुः अह्नायसारथिमवोचत चण्डबाहुः बद्धा मया सुरपतिप्रमुखाः प्रसह्य बालस्य दूर्जटिसुतस्य निरीक्षणेन मुक्ता बभूवुरधुना तदिमान् विहाय कर्तास्म्यमुम् समरभूमिपशूपहारम् तत्स्यन्दनम् सपदि वाहय शम्भुसूनुम् द्रष्टास्मि दर्पितभुजाबलमाहवाय. उद्दीप्तेति मुक्ता इति च. अथ नागपाशविमोचनानन्तरम् उद्दीप्तः प्रदीप्तः कोप एव दहनः अग्निः यस्य. तथा चण्डौ प्रचण्डौ बाहू यस्य. एवम्भूतः सुरेन्द्रशत्रुः तारकः अह्नाय झटिति भो सारथे मया प्रसह्य बलात् बद्धाः नागपाशवशीकृताः सुरपतिप्रमुखाः इन्द्रादयः देवाः बालस्य शिशोः न तु यूनः धूर्जटिसुतस्य शिवपुत्रस्य निरीक्षणेन दर्शनमात्रेण न तु प्रत्यस्त्रादिप्रयत्नेन ముక్తా బభూవుః. అనేన శిశునా ఆత్మనిరీక్షణేనైవ స్వపక్షవర్తినః దేవాః మోచితాః అతః మహాధన్యోయమితి భావః. తత్ తస్మాత్ మదీయశత్రూణాం పక్షవృత్తిత్వేన కృతనాగపాశమోచనరూపాపరాధాత్ ఇమాన్ పురోవర్తినః ఇంద్రాదిదేవాన్ విహాయ పరిత్యజ్య. ఆహవాయ మయా సహ ఆహవం కర్తుమిత్యర్థః. దర్పితం అభిమానమూలకం భుజాబలం బాహుబలం బాహువీర్యం యస్య నతు తత్వతః. తథాభూతం అముం పురోవర్తినం శంభుసూనుం ద్రష్టాస్మి ద్రక్ష్యామి. లుటః ఉత్తమైకవచనం. అథ చ సమరభూమౌ సంగ్రామభువి యే పశవః గృధ్రప్రభృతయః తేషాం ఉపహారం ఉపదారూపం కర్తాస్మి కరిష్యామి. ప్రాగవలోకితం ఏనం అత్ర హత్వా సంగ్రామభూమిస్థేభ్యః విహంగేభ్యః అత్తుం విభజ్య దాస్యామీత్యర్థః. తత్ తస్మాత్ దేవకార్యత్వాత్ సపది సద్య ఏవ స్యందనం రథం వాహయ ప్రాపయ. అవశ్యకర్తవ్యే విలంబానౌచిత్యాదితి భావః. ఇతి సార్ధైకపద్యోక్తం సారథిం అవోచత జగాద. నియంత ప్రాజితాయంత సూతః క్షత్తా చ సారథిః ఇత్యమరః. తత్స్యందనః సపది సారథి సంప్రణున్నః ప్రక్షుబ్ధవారిధరధీరగభీరఘోషః. చండశ్చచాల దళితాఖిల శత్రుసైన్యమాంసాస్థిశోణిత విపంక విలుప్తచక్రః. తత్స్యందన ఇతి ప్రక్షుబ్ధః కోపావిష్టః. అనేన ప్రళయకాలీన ఇతి వ్యజ్యతే. ప్రాయః తత్రైవ తస్య క్రోధావిష్టత్వదర్శనాత్. యః వారిధరః మేఘః తస్య ఘోష ఇవ ధీరః గభీరః ఘనశ్చ ఘోషో యస్య తథోక్తః. తథా దళితం చూర్ణీకృతం అఖిలం సమస్తం యచ్చత్రుసైన్యం వైరిసైన్యం తస్య మాంసం అస్థీని శోణిత విపంకః రుధిరకర్దమశ్చేతి ఏతైః విలుప్తాని చక్రాణి చరణాని యస్య. అత ఏవ చండః ప్రచండః తత్స్యందనః తారకరథః సపది. స్వామినః అనుశాసనక్షణే ఏవ నతు ముహూర్తమాత్రం స్థిత్వేతి భావః. సారథినా సంప్రణున్నః చలితుం నోదితః సన్ చచాల. దృష్ట్వా రథం ప్రళయవాత చలద్గిరీంద్ర కల్పం దళద్బలవిరావ విశేషరౌద్రం. అభ్యాగతం సురరిపోః సురరాజసైన్యం క్షోభం జగామ పరమం భజవేపమానం. దృష్ట్వేతి ప్రళయవాతేన యుగాంతకాల ప్రభంజనేన చలతా ఉడ్డీయమానేన గిరీంద్రకల్పం గిరీంద్రేణ హిమాలయేన ఈశన్యూనం. హిమాలయౌపమ్యం ధవలవసనవేష్టితత్వాత్. ఈశదసమాప్తౌ కల్ప ఇతి కల్పప్రత్యయః. తథా దళతాం ఉపరి వేగపూర్వకవశాత్ చూర్ణీభవతాం బలానాం దేవసైన్యానాం విరావః హాహాహాహేతి రుదితం తేన కృత్వా విశేషరౌద్రం అతిశయభయానకం ఆత్మీయ ఘోరారవ రౌద్రత్వాశ్రయీభూతత్వేపి అతిజవప్రపతన చూర్ణీకృత సకలసుర సైన్యవిహిత మహాఘోర విరావ ధారణాజనిత రౌద్రత్వ ధారణానుకూల వ్యాపారాశ్రయీభూతమిత్యర్థః. తథా అభ్యాగతం సమ్ముఖమాగతం సురరిపోః తారకస్య రథం దృష్ట్వా భయేన వేపమానం కంపమానం సురరాజస్య మహేంద్రస్య సైన్యం సేనాజనసమూహః కర్తృ పరమం అతులం శోభం వ్యథాం జగామ ప్రాప. తదీయ రథావలోకనాదేవ శోభప్రాప్తిః కిం పునః తదీయాకృతి విలోకనాదితి భావః. ప్రక్షుభ్యమాణమవలోక్య దిగీశ సైన్యం శంభోసుతం కలహకేళి కుతూహలోత్కం ఉద్దామదోః కలితకార్ముక దండచండః ప్రోవాచ వాచముపగమ్య స కార్తికేయం. ప్రక్షుభ్యమాణమితి సః తారకః దిగీశ సైన్యం దేవ సైన్యం ప్రకర్షేణ క్షుభ్యమాణం క్షోభం ప్రాప్నువత్ బిభ్యదితి యావత్. క్షుభ్యతేః దైవాదికత్వం తదాకృతిగణత్వాత్ బోధ్యం. తథాభూతం అవలోక్య దృష్ట్వా ఉద్దామయోః ఉద్భటయోః దోష్ణోః బాహ్వోః కలితేన నిహితేన కార్ముకరూపదండేన చండస్సన్ కలహః సంగ్రామరూపో విగ్రహః స ఏవ కేలిః నతు ప్రయత్నసాధ్యం కర్మ. తత్ర యత్ కుతూహలం తత్ర ఉత్కం తదభిలాషుకమిత్యర్థః. తథా శంభోః శివస్య సుతం పుత్రం అనేన తారకవీరరసస్య అనుభావ ఉక్తః. కార్తికేయం కుమారం ఉపగమ్య సమీపం గత్వా వాచం ప్రోవాచ అవోచత్. ఇతఃపరం రే ఇత్యాదిభిః త్రిభిః శ్లోకైః వాచమేవ ప్రపంచయతి. రే శంభుతాపస శిశో బత ముంచ ముంచ దుర్దర్పమత్ర విరమ త్రిదివేంద్రకార్యాత్ శస్త్రైః కిమత్ర భవతోనుచితైరతీవ బాలత్వకోమలభుజాతుల భారభూతైః. రే ఇతి నీచోక్తి సంబోధనే. భోః శంభుతాపస శిశో శంభుః శివః స ఏవ తాపసః తపస్వీ అనేన మహాకృపణత్వం వ్యజ్యతే. తస్య శిశో కౌమారావస్థానుభవరసిక అత్ర మయి విషయే విధీయమానమితి శేషః. దోర్దర్పం భుజదండగత వీర్యహేతుకం అభిమానం దర్పోహంకారక స్తూర్యోః ఇతి విశ్వః. ముంచ ముంచ సర్వథైవ ముంచేత్యర్థః. అథ చ త్రిదివేంద్రకార్యాత్ మదీయవధరూప మహేంద్రవిధేయాత్ విరమ అనుద్యుక్తో భవేత్యర్థః. వ్యాంపరిభ్యోరమః ఇతి పరస్మైపదం. నను అనేక సాధన కర్మాశ్రయీభూతత్వేన త్వదీయవధం చికీర్షుః అహం కథం విరమామీత్యాశంక్య నహి తవ సాధనాని మయి విషయే పరిపక్త్రిమాణి భవిష్యంతీత్యాహ. అతీవ బాలస్య భవతః సంబంధినోః కోమలభుజయోః బాలత్వాత్ అతిశయ పేలవ బాహ్వోః అతులం బహు భారభూతైః దుర్వహైరిత్యర్థః. अत एव अत्र मयि अनुचितैः अयोग्यैः शस्त्रैः कृपाणप्रभृतिभिः किम् अपितु न किमपीति भावः एवं त्वमेव तनयोसि गिरीशगौर्योः किं व्यासि कालविषयं विषमैः शरैर्मे सङ्ग्रामतोपसरजीवपितुर्जनन्याः तूर्णं प्रविश्य वरमङ्कतलं विधेहि एवमिति रे शिशो एवन्नाम मद्विषयकः यः दोर्दर्पः तस्य अङ्गीकारे रसिकः त्वमिति शेषः एवं प्रकारोपमयोरङ्गीकारावधारणे इति विश्वः विषमैः दुःसहैः मे मम शरैः बाणैः कृत्वा कालविषयं दण्डधरदेशं संयमिनीं पुरीमित्यर्थः किं किमर्थं यासि प्राप्नोषि निवृज्जनपदोदेशविषयौ तु उपवर्तनम् इत्यमरः ननु कालविषयप्राप्तौ कैव नः खलु वीराणां हानिः इत्याशङ्क्य आह यतः गिरीशगौर्योः शिवपार्वत्योः अत्र गिरीशस्य अभ्यर्हितत्वात् बह्वचोऽपि पूर्वनिपातः त्वमेव तनयोसि पुत्रोऽसि अतिकृच्छ्रलद्धैकपुत्रस्य वृद्धस्य तनयकर्मककालविषयप्राप्तिः अतिदुःखावहा भवतीति भावः एतेन मया सह भवता न कदापि योद्धव्यमिति व्यज्यते तर्हि किं कर्तव्यं मया इत्यत्र आह सङ्ग्रामत इति रे शिशो सङ्ग्रामतः समरसकाशात् अपसर पलायस्व मदग्रे मातिष्ठेत्यर्थः अत एव जीव प्राणान् धरस्व इतः पलायनमेव तव परमं जीवातुरिति भावः ननु पलायनपूर्वकजीवनेन कः पुरुषार्थः भविष्यतीत्यत आह पितुरिति पितुः जनकस्य तथा जनन्याः मातुश्च अङ्कतलम् उत्सङ्गतलम् तूर्णम् शीघ्रम् प्रविश्य उपविश्य वरम् श्रेष्ठम् कृतार्थमिति यावत् विधेहि कुरु पुत्रस्य अयमेव परमो धर्मः यत् मातापित्रोः येन केनापि सद्व्यापारेण चित्तस्य परितोषकृत्याश्रयो भवति कथं सङ्ग्रामतः पलायनं सद्व्यापारपदवाच्यमित्यस्याः शङ्कायाः पूर्वश्लोके तापसपदेन निवर्तितत्वात् इदानीं हितोपदेशव्याजेन पलायनविधिम् उपदिशति सम्यक् स्वयं किल विमृश्य गिरीशपुत्र जम्भद्विषोऽस्य जहिः प्रतिपक्षमाशु एष स्वयं पयसि मज्जति दुर्विगाह्ये पाषाणनौरिव निमज्जयते पुरा त्वाम् सम्यगिति भो गिरीशपुत्र शिवपुत्र त्वं सम्यक् साधु यथा स्यात् तथा विमृश्य विचार्य साधुविचारणम् अत्र उदर्कविचारणम् तत्कृत्वा अस्य पुरोवर्तिनः जम्भद्विषः इन्द्रस्य प्रतिपक्षम् माम् स्वयं किल आत्मनैव न तु परोक्षेण प्रयोज्यकर्त्रेति यावत् आशु सत्वरं जहिः नाशय साधु विचार्यैव मदीय हननकृत्याश्रयो भव सहसा विदधीतनक्रियामविवेकः परमापदाम्पदम् वृणते हि विमृश्यकारिणम् गुणलुब्धा स्वयमेव सम्पदः इति न्यायादिति भावः प्रस्तुते अविमृश्य करणेन प्रस्तुते अविमृश्यकरणेन कैव विपत्तिः इत्याशङ्क्य आह एष इति एषः जम्भद्विट् पुरा अग्रे दुःखेन दुःखेन कृच्छ्रेण विगाह्ये उत्तार्ये पयसि नीरे मदीय नाराच वर्षणरूप इत्यर्थः मदीय नाराच वर्षणरूपे इत्यर्थः पाषाणनौरिव प्रस्तरत पाषाणनौरिव प्रस्तरतरिरिव स्वयं मज्जति मंक्ष्यति त्वाञ्च निमज्जयते निमज्जयिष्यत इत्यर्थः निमज्जयिष्यते इत्यर्थः यावत्पुरा इति भविष्यदर्थे लट् यथा पाषाणघटितनौका पयःपतिता मज्जति आत्मोपरि आरूढांश्च निमज्जयति तथा अयमिन्द्रोऽपि मदीयघोरनाराचनिचयरूपजलेन आवृतस्सन् मरिष्यति स्वात्माश्रयीभूतं त्वामपि तत्र पातयित्वा मारयिष्यतीति वाच्यार्थः अतः आत्मजीवनाभिलाषुकत्वपक्षे एतदाश्रयीभूतत्वं विहाय वृद्धयोः मातापित्रोः समीपमेव गन्तव्यम् तेन इह अमुत्र च महान्ति श्रेयांसि भविष्यन्तीति व्यङ्ग्यार्थः तेन अत्र अलङ्कारेण वस्तुध्वनिः इत्थं निशम्य वचनं युधि तारकस्य कम्प्राधरो विकचकोकनदारुणाक्षः क्षोभास्त्रिलोचनसुतो धरुणि धनुरीक्षमाणः प्रोवाच वाच मुचिताम् परिमृश्य शक्तिम् इत्थमिति युधि सङ्ग्रामे स्थितस्य तारकस्य सम्बन्धि इत्थम् एवम्भूतम् वचनम् निशम्य श्रुत्वा क्षोभात् क्रोधात् हेतोः कम्प्रः कम्पनशीलः अधरः अधरोष्ठः यस्य क्षोभात् क्रोधाद्धेतोः कम्प्रः कम्पनशीलः अधरः अधरोष्ठः यस्य क्रोधवशात् अधरविस्फुरणम् लोकप्रसिद्धमेव तथा विकचकोकनदवत् विलसद्रक्तोत्पलवत् अरुणे शोणिते अक्षिणी नेत्रे यस्य क्रोधवशात् अरुणनेत्रत्वमपि प्रसिद्धमेव एवम्भूतः त्रिलोचनसुतः कुमारः शक्तिम् आत्मीयवीर्यवैभवम् परिमृश्य तुलयित्वा मदीयवीर्यापेक्षया किम् एतदीयवीर्यम् इत्यनादरपूर्वकम् आत्मीयशक्तेः आधिक्यम् परामृश्य इत्यर्थः धनुः ईक्षमाणः पश्यन् सन् अनेन त्वाम् क्षणादेव निहन्मि सावधानो भव मदीयैतद्धनुरग्रे कुतो यास्यसीति व्यज्यते तेन वस्तुना वस्तुध्वनिः उचिताम् योग्याम् वाचम् वचनम् प्रोवाच प्रोचे